संस्कृतकक्षायां पुनः एकवारं स्वागतम्. अस्माकं कक्षा अस्ति सम्भाषणसंस्कृतं. सम्भाषणसंस्कृतकक्षायां सर्वेषाम् एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वदामि. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः, यत्रैतास्तु न पूज्यन्ते सर्वास्तत्र फलाः क्रियाः. इत्युक्ते अत्र अस्मिन् श्लोके किम् उक्तमस्ति इति पश्यामश्चेत्, यत्र महिलाः अथवा स्त्रियः आदरणीयाः भवन्ति अथवा महिलाः आदरं प्राप्नुवन्ति तत्र देवताः रमन्ते. रमन्ते इत्युक्ते आनन्दानुभवं प्राप्नुवन्ति. देवताः आनन्दानुभवं प्राप्नुवन्ति. किन्तु तस्य विपरीतरीत्या यत्र महिलानां सम्माननं न भवति तत्र सर्वाणि कार्याणि विफलाः अथवा व्यर्थाः भवन्ति. इत्युक्ते यस्मिन् समाजे स्त्रियः सम्माननं प्राप्नुवन्ति तस्मिन् समाजे देवताः रमन्ते. नो चेत् सर्वाणि कार्याणि विफलाः भवन्ति इति अर्थः. किमर्थम् इमं श्लोकम् अद्य पठितवती इत्युक्ते, अत्र श्लोके यत्र तत्र इति पदयुगलमस्ति. तत्र इति पदस्य विषये वयं पूर्वमेव पठितवन्तः. तत्र, अत्र, कुत्र, अन्यत्र एतादृशानि पदानि वयं पूर्वमेव अधीतवन्तः. अद्यतन अस्माकं नूतनविषयः अस्ति यत्र तत्र इति पदद्वयं. तस्मिन् विषये किञ्चित् वयं परिशीलनं कुर्मः अद्य. यत्र इति पदं कथं निष्पन्नं भवति इति किञ्चित् चिन्तनं कुर्मः चेत्, यद् इति दकारान्तपदं, यद् दकारान्तपदमस्ति. तत्र यद् योगः त्रल् इति एकः प्रत्ययः. त्रल् प्रत्ययस्य विषये किञ्चित् वदामि. तत्र लकारः हलन्त्यमित्यनेन अपगच्छति, तत्र त्र एव तिष्ठति. इत्युक्ते अत्र यद् योगः त्र, तत्र यत्र इति रूपं तथा आगतम्. अत्र अद्य वयं तस्मिन् विषये यत्र तत्र तयोर्विषये किञ्चित् चिन्तनं कुर्मः. अपि च यदि वयं भगवद्गीतां पश्यामश्चेत् तत्र एकः श्लोकः अस्ति, यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः तत्र श्रीर्विजयोर्भूतिः ध्रुवा नीतिर्मतिर्मम इति अन्य एकः श्लोकः. सः श्लोकः भगवद्गीतायाम् अस्ति. अपि च वयं साधारणतया शृणुमः अन्यः श्लोकः, सः कः इत्युक्ते, यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं बाष्पवारि परिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् इति श्लोकं वयं जानीमः एव. इत्युक्ते अस्मिन् श्लोके अपि यत्र तत्र इति पदद्वयं योजितमस्ति. गते सप्ताहे वयं कीदृश, ईदृश, तादृश, यादृश एतादृशानि पदानि वयं दृष्टवन्तः. अपि च किञ्चित् गृहपाठः अपि अस्ति. गृहपाठरूपेण तत्र सम्भाषणं लेखनीयं, तत्र सम्भाषणं आदर्शरूपेण अस्माकं कृते एकं सम्भाषणं पूर्वमेव लिखितमस्ति पुस्तके. तत् सम्भाषणं दृष्ट्वा लेखनी इति पदं स्थापयित्वा पुनः सम्भाषणं लेखनीयम्. सुचित्रा भगिनी, भवती कृतवती वा? अत्र
अहं गृहपाठं कृतवती, बट् ऐ मिस् अण्डर्स्टुण्ड्, ऐ जस्ट् रोट् मै ओन् सेण्टेन्सस्, ऐ डिन् रीड् इट् प्रोप्लि.
अस्तु, श्रावयतु. इत्युक्ते अत्र अत्र किं लिखितमस्ति इत्युक्ते आदर्शरूपेण इत्युक्ते मोडल् रूपेण तत्र एकं सम्भाषणम् अस्माकं कृते लिखित पूर्वमेव लिखितमस्ति, किन्तु सम्भाषणं दृष्ट्वा तत्र पाञ्चालिका इति पदस्य स्थाने लेखनी इति पदं योजयित्वा तदेव सम्भाषणं लेखनीयं, किन्तु तत्र काठिन्यम् इति नास्ति.
I can try it, Bhagini.
Okay.
आपने कहा, भवती किम् इच्छति? अहं लेखनीयम् इच्छामि. कीदृशलेखनीयम् इच्छति? पश्यतु, ईदृशलेखनीयम् इच्छामि. अस्ति वा? अस्ति, परन्तु तादृश लेखनीयाः मूल्यं विंशति रूप्यकाणि. रमा, दर्शयतु भोः. किं भोः? मम सखी अपि हय ईदृश लेखनीयम् एव कृतवती. तस्याः मूल्यं तु दशरूप्यकाणि एव. आपणिका, प्रायः सा लेखनी ईदृशलेखनी न स्तयात्. रमा, ईदृशलेखनी एव भोः, अहं सम्यक् जानामि. आपणिकः, तर्हि पञ्चदशरूप्यकाणि ददातु, नयतु. रमा, न पञ्चदशरूप्यकाणि अधिकानि, अहं तु दशरूप्यकाणि ददामि. आपणिकः, भवतु भवतु लेखनी स्वीकरोतु.
तथा एव सुलभः एव, तत्र किमपि काठिन्यं नास्ति. अत्र केवलं किञ्चित् उच्चारणस्य विषये वदामि भगिनी. रूप्यकाणि इति पदमस्ति अत्र, अपि च स्यात् इति पदमस्ति. उच्चारणं किञ्चित् सम्यक् समीकरोतु. स्यात् पञ्च लेखनी न स्यात्, रूप्यकाणि ददातु इति अत्र पदमस्ति.
रूप्यकाणि स्यात्,
रूप्यकाणि तत्र इत्युक्ते अत्र पकारस्य अनन्तरं पकारात् परं तत्र अकारः नास्ति, रूप्य इति वदामः. तत्र उच्चारणं किञ्चित् सम्यक् भवेत्, तत्र किमपि काठिन्यं नास्ति, उत्तमरीत्या कृतवती भवती, उत्तमम्. अनन्तरम् अत्र साईकृष्णमहोदय, भवान् वदतु अत्र गृहपाठरूपेण अत्र अलाउद्दीनस्य दीपः इति कथायाः नीतिः का इति किञ्चित् वदतु.
भगिनी, संस्कृते कठिनमस्ति.
किञ्चित् प्रयत्नं किञ्चित् वदतु महोदय.
स्वयमेव कार्यं करणीयम्. Don't seek work from others. Do yourself.
तदेव इत्युक्ते स्वकार्याणि स्वयम् एव कुर्युः. भवन्तः सर्वे स्वकार्याणि स्वयमेव कुर्युः. एकः विषयः. अपि च भगवता सर्वाणि इन्द्रियाणि दत्तानि, अथवा सर्वे अवयवाः अस्माभिः दत्ताः, भगवता दत्ताः. अस्माकं बुद्धिः अस्ति, अपि च विद्या अपि अस्ति. विद्यायाः उपयोगं कृत्वा, बुद्धेः उपयोगं कृत्वा कार्याणि कुर्युः. तथा कुर्मः चेत् यस्य कस्यापि भूतस्य साहाय्यं न अपेक्षितम् अथवा न आवश्यकम् इति एव अत्र नीतिः. अत्र जान् महोदय, भवान् वदति वा कानिचन वाक्यानि अस्मिन् विषये? अलाउद्दीनस्य दीपः तस्य नीतिः मोरल्
महोदय नीचे नयनं दृष्टमस्ति अस्मि सो ऐ केनाट् सी प्रापर्लि सो
न न अहं किं वदामि इत्युक्ते अत्र कथायाः नीतेः विषये एकं वाक्यं वा अथवा वाक्यद्वयं वा किञ्चित् वदति वा तत्र मोरल् कथा वयं गते सप्ताहे कथां पठितवन्तः वयं किन्तु कथायाः नीतेः विषये
कथायाः मोरल् मोरल् वन् शुड् रिलै आन् योर् सेल्फ् योर् ओन् स्किल्स् One should be self-reliant. That's my understanding of the moral. Rather than depend on magic and things like that, or luck. One should be self-reliant and rely on one's own skills rather than expect Alauddin's deepa to do things for you.
तावदेव इत्युक्ते अत्र यदि भवान् गृहे किञ्चित् चिन्तयति चेत् एतदेव संस्कृतभाषायाम् अपि वक्तुं शक्नोति सरलानि वाक्यानि किञ्चित् सरलानि वाक्यानि किञ्चित् चिन्तयित्वा लिखति चेत् संस्कृतभाषायाम् अपि एतदेव वक्तुं शक्नोति भवान् यु केन् अब्सल्यूट्लि ट्रै दीस् sentences in Sanskrit and you can give it a try.
Okay. Adhyana idanam you want me to do it now idanam right now or later?
anantaram karotu prayatnam karotu
anantaram
uttama tavadeva grahapatharupena vayam तदेव स एव अस्माकं गृहपाठः गते सप्ताहे किन्तु अत्र अद्य अभ्यासपुस्तके इतोपि किम् अस्ति इति एकवारं पश्येम अत्र सर्वे पञ्चषष्टितमे पुटे किमस्ति इति पश्यन्तु अत्र पञ्चषष्टितमे पुटे पञ्चषष्टितमं पुटं पश्यन्तु इत्युक्ते अत्र सुचित्रा भगिनी वदतु अत्र पञ्चषष्टिः इत्युक्ते किं
65
उत्तमम् इत्युक्ते तावत्पर्यन्तं पञ्चषष्टितमं पुटपर्यन्तं वयं गते सप्ताहे एव परिशीलितवन्तः अद्य षट्षष्टितमं पुटं पश्यामः अत्र भवती एव पठतु उपरि षट्षष्टितमे पुटे किमस्ति उपरि विशेषसूचना इति लिखितम् अस्ति पठतु
विशेषसूचना स्थूलः बालकः स्थूलः बालिका स्थूला पुस्तकं स्थूलं नूतन ग्रन्थः नूतनः लेखनी नूतना युतकं नूतनम्
भवती किम् अवगतवती
त्रिषु लिङ्गेषु भवति स्थूलः नूतन नै स्थूलः इस् इट् ओल्ड् भगिनि
सम्यक् एव इत्युक्ते अत्र पूर्वस्मिन् पुटे किं लिखितमस्ति स्थूल तत्र पूर्वस्मिन् पुटे विरुद्धार्थकशब्दाः दत्ताः अपोजिट् वर्ड् गिवेन् स्थूल इति पदस्य विरुद्धार्थकशब्दः कृशः नूतन इति पदस्य विरुद्धार्थकपदं पुरातन नूतन अथवा पुरातन इदानीन्तन अथवा नूतन स्थूल इति पदं विशेषणं तथा एव नूतन इति पदमपि विशेषणमस्ति यदा कदापि अत्र विशेषणरीत्या तस्य उपयोगः भवति चेत् तस्य रूपं त्रिषु लिङ्गेषु भवति. स्थूलः स्थूला स्थूलम्. स्थूलः बालकः स्थूला बालिका. स्थूलं पुस्तकं तथा एव नूतनः ग्रन्थः नूतना लेखनी नूतनं द्युतकम् इति दत्तमस्ति. इत्युक्ते अत्र विशेषणम् अस्ति इति कृत्वा साधारणतया विशेषणं पदं किं कार्यं करोति? विशेष्यस्य वर्णनं करोति. तदर्थमेव अत्र त्रिषु लिङ्गेषु रूपाणि दत्तानि. अनन्तरं अधुना अत्र एकः अन्यः विषयः अस्ति. अपेक्षया इति एकं नूतनं पदमस्ति. अत्र तस्य उपयोगं कथं कुर्मः वाक्येषु इति ज्ञातव्यम् अस्माभिः. साईकृष्णमहोदय भवान् करोतु 30.1 अपेक्षया.
आवरणे विद्यमानस्य पदस्य सहायेन वाक्यानि लिखतु.
अत्र स्थगयतु महोदय एकवारम्. आवरणे इति पदमस्ति, तत्र विभक्तिः का?
आवरणे सप्तमी.
सप्तमी विद्यमानस्य
षष्टि.
अत्र विद्यमानस्य इति पदस्य विषये इतोपि जानाति चेत् वदतु भवान्.
विद्यमानस्य
कोऽपि जानाति वा विद्यमानस्य इति पदस्य विषये? किञ्चित् वदामि तस्मिन् विषये. संस्कृतभाषायां क्रियापदानि सन्ति. क्रियापदानि वयं जानीमः. अत्र एव पश्यतु, लिखतु इति पदमस्ति. लिखतु इति लोट्लकाररूपं, लिखति इति लट्लकाररूपं. तत्र संस्कृतभाषायां धातवः द्विप्रकारकाः, परस्मैपदी धातवः आत्मनेपदी धातवः इति द्विप्रकारकाः सन्ति. अत्र लिख् धातुः आत्मनेपदी परस्मैपदी धातुः, तस्य रूपं लिखति. किन्तु अत्र विद् धातुः अस्ति, विद् धातोः रूपं विद्यते. विद्यते इति पदम् आत्मनेपदी. विद्यते इति शब्दस्य शाणच् प्रत्ययान्तरूपं. तत्र संस्कृतभाषायां बहवः प्रत्ययाः सन्ति. अत्र विद् धातुः अस्ति, अपि च शाणच् इति प्रत्ययः अस्ति. तस्य रूपमेव तत्र विद्यमान इति पदम्. विद्यमान शाणचन्तरूपं विद्यमान इति पदस्य कृदन्तपदम् इत्युक्ते धातुतः निर्मितमस्ति, अतः कृदन्तपदम् इति वदामः. विद्यमान तस्य कृदन्तपदस्य षष्ट्यन्तं रूपम् एव विद्यमानस्य. विद्यमानस्य इत्युक्ते आवरणे स्थितस्य इति अर्थः. विद्यते इति क्रिया, तत्र क्रियापदमस्ति. विद् धातुः किन्तु शाणजन्तरूपं विद्यमानस्य पदस्य. अत्र साहाय्येन रूपं किम्?
साहाय्येन तृतीय.
तृतीय. अत्र प्रथमान्तं रूपं साहाय्यम् इति पदं. साहाय्यं नपुंसकलिङ्गपदं. साहाय्येन तृतीयान्तरूपं वाक्यानि लिखतु. अत्र उदाहरणं पठतु एकवारम्.
उदाहरणं विजयस्य अपेक्षया विनयः उन्नतः. विजयस्य अपेक्षया विनयः उन्नतः.
अत्र अत्र पश्यतु, अत्र आवरणे एकं पदमस्ति विजयः इति पदमस्ति. अत्र विजयः कः इत्युक्ते विजयः एकः बालकः, अपि च विनयः अन्यः बालकः. किन्तु अत्र उदाहरणं कथं लिखितमस्ति, विजयस्य अपेक्षया विजयस्य अपेक्षया उन्नतः. अत्र उन्नतः इत्युक्ते भवान् किम् अवगतवान्? आङ्ग्लभाषायां किं वदामः?
विजयस्य अपेक्षया इत्युक्ते
अत्र तुलना अस्ति, यु आर् कम्पेरिङ्ग्, कम्पेरिजन् अस्ति. विजयः एकः बालकः, विनयः अन्यः बालकः. किन्तु अत्र किं लिखितमस्ति, विजयस्य अपेक्षया विनयः उन्नतः. अत्र तुलना अस्ति तयोर्मध्ये. वि आर् कम्पेरिङ्ग् दोस् टु.
Yeah, compared to Vijaya, Vinataha is taller.
Taller. Atra taller iti na dattamasti. Vinaya is tall.
Vinaya is tall. Yeah, Vinaya is tall.
Yadi vayam taller iti vadamasti, unnata taraha.
Unnata taraha. But here it is just unnata.
Unnata. Okay. Vijaya is apekshaya.
Tallest iti vadamasti, unnata tamaha. तादृशरीत्या वक्तव्यम् इत्युक्ते तत्र उन्नततरः, उन्नततमः इति वदामश्चेत् तत्र भिन्नप्रत्ययः अस्ति. तरप् कम्पेरेटिव् डिग्री, सुपर्लेटिव् डिग्री तथा वदामश्चेत् तत्र उन्नततरः, उन्नततमः तादृशरीत्या वक्तुमिच्छामश्चेत् तत्र भिन्नप्रत्ययः अस्ति. किन्तु अत्र केवलम् उन्नतः इति लिखितमस्ति. कः उन्नतः? विजयः उन्नतः. उन्नतः किन्तु कस्य? पश्यतु अत्र, विजयस्य अपेक्षया विनयः उन्नतः. विनयः उन्नतः कस्य अपेक्षया? विजयस्य अपेक्षया. इत्युक्ते तत्र तयोर्मध्ये तुलनां कुर्मः. तुलना इत्युक्ते कम्पेरिजन्. तादृशरीत्या लिखितमस्ति. अत्र प्रथमं करोतु भवान्.
समीरः चतुरः, मधुसूदनः. मधुसूदनस्य अपेक्षया
समीरः
चतुरः.
मधुसूदन, मधुसूदनः एकः पुरुषः, समीरः अन्यः. मधुसूदनस्य अपेक्षया समीरः चतुरः. अत्र चतुरः इति पदमस्ति. चतुरः इत्युक्ते किं? स्मार्ट्, क्लवर् तादृशार्थः. अत्र पूर्वस्मिन् वाक्ये विजयस्य अपेक्षया विनयः उन्नतः इति लिखितमस्ति. किन्तु वयं भिन्नरीत्या वक्तुमिच्छामश्चेत्, इफ् यु वाण्ट् एक्स्प्रेस् द सेम् थिङ्ग् इन् ए डिफ़रेण्ट् वे, कथं वदामः इत्युक्ते, विनयस्य अपेक्षया विजयः वामनः. वयं जानीमः पूर्वस्मिन् पुटे विरुद्धार्थकशब्दान् जानीमः. उन्नतशब्दस्य विरुद्धार्थकपदं वामनः. अतः विनयस्य अपेक्षया विजयः वामनः इति वक्तुं शक्नुमः. वी केन् आल्सो एक्स्प्लेन् द सेम् थिङ्ग् इन् ए डिफ़्रेण्ट् वे. तथा एव अत्रापि भवान् किम् उक्तवान्? मधुसूदनस्य अपेक्षया समीरः चतुरः. किन्तु समीरस्य अपेक्षया मधुसूदनः, वदतु. भिन्नरीत्या समीरस्य अपेक्षया,
समीरस्य अपेक्षया मधुसूदनः Chaturah opposite.
Mandaha.
Mandaha.
Mandaha. Adva Chaturah nasti.
Okay.
Chaturah nasti. Dvitiyam karotu.
Raghuvamshah. Ramayanam Brihat Kavyam.
Atra Raghuvamshah iti ekam kavyam. Raghuvamshah iti kavyasya nama. Tadhaeva Ramayanam kavyasya nama. Atra tayor madhye yadi vayam tayor madhye tulanam kurmaha chet. Tadha kadam vaktavyam apekshaya iti padam yujayitva vadatu.
Raghuvamshasya apekshaya Ramayanam Brihat Kavyam.
Raghuvamshasya apekshaya Ramayanam Brihat Kavyam. Brihat ichukte bahu?
Big, large.
Large iti vadamaha. Raghuvamshaha kena likhitam kavyam? Kaha likhitavan?
Kalidas.
Kalidasena virichitam kavyam eva Raghuvamshah. Ramayana granthe kati shlokaha santi vadatu.
Forgot bhagini.
Suchitra bhagini janati va
vadatu. 24,000.
Uttamam. Kadam vaktavyam, samskrita bhashayam, kadam vaktavyam. Vadatu mahodaya, 24,000 iti vaktum ichhamasya, kadam vaktavyam.
Ramayanasya likhitaha valmihi.
Ramayanasya lekhakaha valmikihi.
Right.
Lekhakaha Valmikihi. Kintu Ramayana Granthe Kati Shlokaha Santi Suchitra Bhagini Uktavati 24,000 Chaturvimshati Sahasram.
Chaturvimshati Sahasram.
Shlokaha Santi. Kintu Raghuvamsha Granthe Tadrushaha Shlokaha na Santi. Kevalam Laghu Granthaha Eva. Laghu kavyam eva. Kintu Ramayanam Bruhat kavyam. Raghuvamsasya apekshaya Ramayanam Bruhat kavyam. Kintu bhinaritya vadatu Ramayanasya apekshaya vadatu.
Ramayanasya apekshaya Raghuvamshah laghu kavyam.
Tavadeva. Raghuvamshah laghu kavyam. Ichukte tasmin granthe nyunaha shlokaha santi. Laghu kavyam. Dhanyavadah mahodaya. Atra Suchitra bhagini bhavati karotu tritiyam.
Mama grihasya apekshaya bhavatah griham vishalam.
Mama griha. Gruhasya apekshaya bhavatah gruham vishalam. Atra visheshtam padam kim vishalam. Atra mama gruhasya apekshaya bhavatah gruhasya apekshaya tadrushritya vadatu.
Bhavatah gruhasya apekshaya mama gruham vishalam. Na vishalam, I don't know what is laghu.
Vishalam nasti.
Vishalam nasti.
Adhava, vishalam iti padasya viruddhartaka padam sankirnam. Sankirnam ichukte vishalaha nasti. Gruham vishalam. Kasya gruham vishalam? Bhavataha gruham vishalam. Kasya apekshaya? Mama gruhasya apekshaya bhavataha gruham vishalam. Atra yadi aham vaktam ichhami chet mama gruhasya apekshaya bhavatyah gruham vishalam. इति अपि वक्तुं शक्नुमः. किन्तु अत्र पुंलिङ्गे लिखितमस्ति वाक्यम्. अग्रिमम् अग्रिमं करोतु.
बेङ्गलूरु नगरस्य अपेक्षया मैसूरुनगरं सुन्दरम्. मैसूरुनगरस्य अपेक्षया बेङ्गलूरुनगरं न सुन्दरं. सुन्दरम् ऐ डोण्ट् नो दि आपोसिट् आफ् मी.
विरूपम् अथवा कुरूपम्.
कुरूपम्
कुरूपम् इत्युक्ते नाट् सो ब्यूटिफुल् अग्लि इति अर्थः. तत्र विरूपम् अथवा कुरूपम्. अत्र बेङ्गलूरुनगरं मैसूरुनगरं तयोर्मध्ये तुलना अस्ति. अत्र कस्य अपेक्षया किं नगरं सुन्दरं वदतु.
बेङ्गलूरुनगरस्य अपेक्षया मैसूरुनगरं सुन्दरम्.
मैसूरुनगरं सुन्दरं बेङ्गलूरुनगरस्य अपेक्षया. उत्तमम्. अनन्तरम् अत्र भावना भगिनी, धन्यवादः भगिनी. भावना भगिनी भवती कर्तुं शक्नोति वा अग्रिमम्?
एक एक प्रश्न अस्ति. विरोधः विशालस्य विरोधः का?
विशालं विशालम् इति पदस्य विरुद्धार्थकपदं संकीर्णं.
स्लोलि पञ्च पञ्च स्लोलि पञ्च
संकीर्णं संकीर्णं
पङ्कीर्णम्. ओके
संकीर्णं संकीर्णम् इत्युक्ते तत्र विशालं नास्ति. नेरो नेरो इति अर्थः. संकीर्णं
पङ्कीर्णम्. ओके थेङ्क् यू धन्यवादः. पङ्कीर्णं
तत्र किं वदामि. अत्र पश्यतु महोदय उच्चारणं समीरः इति लिखितमस्ति तथा एव तत्र सङ्कीर्णं सम् प्रथमवर्णः सकारः दन्त्यसकारः. सुलभं समीरः तादृशरीत्या एव सङ्कीर्णम् इति लिखितमस्ति. उत्तमम्. अत्र भावना भगिनी भवती करोति वा. अत्र भाषणं सुलभं करोति वा नो चेत् अत्र साईकृष्णमहोदय भवान् करोतु.
करिष्यामि. लेखनं लेखनस्य अपेक्षया भाषणं सुलभं.
भवान् किं चिन्तयति. अत्र पश्यतु लेखनं भाषणं इति पदद्वयमस्ति. लेखनम् इत्युक्ते
रैटिङ्ग्,
भाषणम् इत्युक्ते
स्पीकिङ्ग्. स्पीकिङ्ग् इस् ईजियर् देन् रैटिङ्ग्. भाषणस्य अपेक्षया लेखनं न सुलभं, कष्टं.
कष्टम् अथवा अन्यत् पदमस्ति कठिनं.
कठिनं
इत्युक्ते अत्र भाषणस्य यथा भवान् उक्तवान् भाषणस्य अपेक्षया लेखनं कठिनं. अपि च अहम् अन्यत् पदं वदामि पठनं श्रवणं. श्रवणं पठनं एकवारं वदतु. अत्र कस्य अपेक्षया किं सुलभं, कस्य अपेक्षया किं कठिनं. पठनं श्रवणं
पठनस्य अपेक्षया श्रवणं सुलभं.
श्रवणस्य अपेक्षया
पठनं कठिनं.
श्रवणस्य अपेक्षया पठनं कठिनं तथा एव. अन्तिमं करोतु.
उमा अपर्णा कृषा कृषा
अत्र पश्यतु वयं पूर्वस्मिन् पुटे कृश इति पदं ज्ञातवन्तः स्थूलः कृशः स्थूल इति पदस्य विरुद्धार्थकशब्दः कृशः किन्तु अत्र उमा इति एका बालिकायाः नाम अस्ति अपर्णा अपि बालिकायाः नाम अतः अपर्णा कृशा
उमायाः अपेक्षया अपर्णा कृशा अपर्णायाः अपेक्षया उमा स्थूला
अपर्णायाः अपेक्षया उमा स्थूला उत्तमम् उत्तमं महोदय धन्यवादः अत्र अहम् एकं वाक्यं वदामि साधारणतया मातृभाषायाः अपेक्षया अन्या भाषा दुर्लभा मातृभाषायाः अपेक्षया अन्या भाषा दुर्लभा तथा एव आङ्ग्लभाषायाः अपेक्षया संस्कृतभाषा किं वक्तव्यम् अत्र कोऽपि वदति वा
कठिनं
कठिनं उत्तमं सुलभं किमपि अत्र भाषा इत्यस्मिन् विषये वक्तुमिच्छामः अतः किं वदामः आङ्ग्लभाषायाः अपेक्षया संस्कृतभाषा कठिना अथवा सुलभा अथवा मधुरा किमपि किमपि वयं वक्तुमिच्छामश्चेत् तादृशरीत्या अत्र अपेक्षया इति पदस्य उपयोगं कृत्वा कानिचन वाक्यानि लेखितुं शक्नुमः भवन्तः सर्वे अपि गृहपाठरूपेण कानिचन वाक्यानि रचयन्तु अपेक्षया इति पदं योजयित्वा कतिचन वाक्यानि गृहपाठरूपेण लिखन्तु अधुना अत्र 30.2 भागे अन्यत् पदद्वयमस्ति युगलं कृत्वा यत्र तत्र इति पदद्वयमस्ति सुचित्रा भगिनी भवती पठतु अत्र किं लिखितमस्ति
यत्र तत्र एतेषां पदानां सहायेन अन्यानि वाक्यानि लिखन्तु
अत्र एकवारं स्थगयतु भगिनी एतेषां पदानां तस्य रूपं किम्
षष्टिविभक्ति बहुवचनं
उत्तमम् उत्तमं साहाय्येन वयं जानीमः तृतीयान्तं रूपम् अन्यानि वाक्यानि लिखतु इति लिखितमस्ति अत्र अन्यानि वाक्यानि इति द्वितीयविभक्ति बहुवचनं किन्तु प्रथमविभक्ति एकवचनं वदतु
अन्यं वाक्यम्
अत्र अन्यशब्दस्य रूपं नपुंसकलिङ्गे अन्यत् अन्यत् भवति
अन्यत्
अन्यत् वाक्यम् अन्यत् वाक्यम् एकवचने प्रथमाविभक्तिः किन्तु बहुवचनरूपं दत्तमस्ति अन्यानि वाक्यानि किन्तु अत्र लिख् धातुः सकर्मकधातुः अस्ति इति कृत्वा अत्र द्वितीयाविभक्त्याम् अस्ति एतत् पदद्वयं सकर्मकधातुः लिख् धातुः उत्तमम् अत्र उदाहरणत्वेन एकं वाक्यं लिखितमस्ति पठतु अत्र शर्करा पिपीलिका
शर्करा पिपीलिका यत्र शर्करा तत्र पिपीलिका भवन्तः भवन्ति
एतत् वाक्यं समीचीनं वा भवती परिशीलितवती वा यत्र शर्करा अस्ति तत्र पिपीलिकाः भवन्ति भवती अवगतवती वा अत्र इत्युक्ते किं भवती किम् अवगतवती वदतु
कदापि मधुरं यत्र मधुरम् अस्ति तत्र पिपीलिका भवति शर्करा मधुरम्
उत्तमं पिपीलिका इत्युक्ते उत्तमं यत्र शर्करा अस्ति तत्र पिपीलिकाः आगच्छन्ति एव यत्र तत्र एतत् पदद्वयं युगलं कृत्वा आगच्छति वाक्येषु अहम् एकं श्लोकं पठितवती यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं तादृशरीत्या यत्र तत्र यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः किन्तु श्लोके अपि यत्र इति पदम् आगच्छति चेत् तस्मिन्नेव श्लोके तत्र इति अपि आगच्छति इत्युक्ते युगलं कृत्वा एस् ए पेर् दिस् टु वर्ड्स् विल् गो इन् ए सेण्टेन्स् अस्तु अधुना अत्र दीपः प्रकाशः इति पदद्वयमस्ति योजयित्वा एकं वाक्यं रचयतु भगिनि
यत्र दीपः तत्र प्रकाशः अस्ति या भवन्ति
अत्र भवन्ति इति न वदामः किमर्थम् अत्र पदं पिपीलिकाः इति बहुवचनमस्ति अतः भवन्ति किन्तु अत्र प्रकाशः दीपः एकवचनरूपम् अतः यत्र वदतु महोदय
यत्र दीपः अस्ति तत्र प्रकाशः अस्ति
तत्र प्रकाशः अस्ति इत्युक्ते तत्र पदद्वयम् एकवचने अस्ति तदर्थं क्रियापदम् अपि एकवचने भवेत् इत्युक्ते वयं साधारणतया अत्र कर्तरिप्रयोगे वाक्यरचनां कुर्मः वि आर् यूसिङ्ग् आक्टिव् वाय्स् हियर् न तु पासिव् वाय्स् अतः कर्तृपदम् अनुसृत्य क्रियापदं सम्भवति अतः दीपः यत्र अस्ति तत्र प्रकाशः भवति इति वक्तव्यम् अग्रिमं करोतु भगिनि
भवति
यत्र क्रीडा तत्र बालकाः भवन्ति भवन्तः
भवन्ति
भवन्ति
अत्र यत्र क्रीडा यत्र क्रीडा तत्र बालकाः
भवन्ति
भवन्ति इत्युक्ते यत्र क्रीडा वर्तते यत्र क्रीडा अस्ति तत्र बालकाः गच्छन्ति किञ्चित् म्यूट् करोमि धन्यवादः भगिनि अनन्तरं जान् महोदय भवान् पठितुं शक्नोति वा
शक्नोति वा शक्नोमि
विदूषकः
विदूषकः
विनोदः
विनोदः विदुषः विनोदः विनोदः सो तत्र विदुषः अस्ति तत्र विनोदः अस्ति
यत्र यत्र विदुषकः अस्ति तत्र विनोदः अस्ति
यत्र विदुषः अस्ति तत्र विनोदः विनोदः अस्ति ओके
अत्र विदूषकः इति पदमस्ति विदूषकः इत्युक्ते कः
विदूषः विदूष ऐ डोण्ट् नो द मीनिङ्ग् अर्थं न जानामि
साईकृष्णमहोदय वदतु विदूषकः इत्युक्ते कः
क्लौन्
क्लौन् क्लौन् उत्तमं यत्र अत्र पश्यन्तु यत्र विदूषकः अस्ति तत्र विनोदः भवति विनोदः इत्युक्ते एण्टर्टैन्मेण्ट्
विनोदः अस्ति ओके तत्र विनोदः अस्ति
यत्र आपन
पठतु भगिनि भावना भगिनि भवती कर्तुं शक्नोति वा करोतु
यत्र अपनं कः सहति तत्र राहुकम्
अस्ति
अस्ति
अत्र पश्यतु अत्र आपणः इति पदमस्ति आपणः इत्युक्ते किम्
आपणः इस् मर्चेण्ट्
न न आपणिकः आपणिकः इति मर्चेण्ट् किन्तु अत्र आपणः इति उक्तमस्ति
मार्केट् मार्केट् सारी मार्केट् ओम् शॉप
शॉप उत्तमम् आपणः इत्युक्ते शॉप आर् स्टोर्
यत्र आपणः अस्ति तत्र ग्राहकः कस्टमर्स् अस्ति
उत्तमं तदेव इत्युक्ते अत्र आपणः इत्युक्ते स्टोर् किन्तु यः यः पुरुषः आपणे कार्यं करोति सः आपणिकः अपि च अत्र ग्राहकः इति पदमस्ति ग्राहकः इत्युक्ते यः ग्रहणं करोति इत्युक्ते तत्र यः क्रयणं करोति क्रयणम् इत्युक्ते बयिङ्ग् यः क्रयणं करोति सः क्रेता ग्राहकः क्रेता संस्कृतभाषायाम् अन्यत् पदमस्ति क्रेता यः क्रयणं करोति सः क्रेता यः विक्रयणं करोति सः विक्रेता तत्र विक्रेता इत्युक्ते सेलर् क्रेता इत्युक्ते बयर् अत्र किन्तु अत्र अस्माकं कृते नूतनं पदमस्ति ग्राहकः ग्राहकः इत्युक्ते यथा महोदयः उक्तवान् कस्टमर् इति अर्थः अत्र यत्र आपणः अस्ति तत्र ग्राहकः अस्ति अथवा गच्छति अत्र पदम् एकवचने दत्तमस्ति भवती बहुवचने वक्तुं शक्नोति वा भगिनि बहुवचने वक्तुं शक्नोति वा सुचित्रा भगिनी भवती वदतु बहुवचने वाक्यं
एकनिमिषं भगिनि ग्रहकः ग्रहकाः आपणः आपणाः
पूर्णतया वाक्यं वाक्यनिर्माणं करोतु
यत्र आपणाः तत्र ग्रहकाः भवन्तः
भवन्ति
भवन्ति भवन्ति भवन्ति
अत्र भवन्तः इति पदं भिन्नं पदं भवति भवति इति शब्दस्य रूपं भवन्ति यत्र आपणाः सन्ति तत्र ग्राहकाः भवन्ति अथवा यत्र आपणाः सन्ति तत्र ग्राहकाः गच्छन्ति अपि च अहम् एकं वाक्यं वदामि यत्र संस्कृतभाषा वर्तते अथवा यत्र संस्कृतभाषा अस्ति तत्र उत्तमसंस्कृतिः अपि च संस्कारः विद्यते उत्तमसंस्कृतिः अथवा उत्तमसंस्कारः तत्र दृश्यते here there is Sanskrit there you can see संस्कारः उत्तमसंस्कारः अथवा संस्कृतिः अपि च अत्र 30.2 भागे साईकृष्णमहोदय भवान् करोतु द्वितीयं वाक्यं पठित्वा
30.2 द्वितीयं वाक्यं पठित्वा तत् सम्बन्धं प्रथमवाक्यं लिखतु
अत्र एकवारं
द्वितीयं वाक्यं पठित्वा तत् सम्बन्धं प्रथमवाक्यं लिखतु
इत्युक्ते
रीड् द सेकेण्ड् sentence after reading the second sentence tasya sab शुद्धं प्रथमवाक्यं लिखतु.
इत्युक्ते अत्र पश्यतु, द्वितीयं वाक्यं पठित्वा, अत्र वयं पूर्वमेव पठितवन्तः पठित्वा पठित्वा, तत्र क्त्वान्तरूपं पठधातोः रूपं पठित्वा, वयं पूर्वमेव क्त्वा प्रत्ययान्तरूपाणि पठितवन्तः. कथं? प्रथमतया वाक्यं पठित्वा, प्रथमं द्वितीयं वाक्यं पठित्वा प्रथमं वाक्यं लिखतु. किन्तु प्रथमं वाक्यं कीदृशं भवेत् इत्युक्ते तत्सम्बद्धं, तत्र सम्बन्धम् इति न वदामः. किं वदामः?
सम्बद्धं.
तत्र तत् इति पदमस्ति, अपि च सम्बद्धम् इति रूपम् सम्बद्धम् इत्युक्ते तत्र वर्णमेलनम् एव अस्ति, सन्धिः नास्ति. तत्र अत्र कार्यद्वयमस्ति अस्माकं कृते. देर् आर् टु एक्षन्स् टु बि डन्. प्रथमं कार्यमस्ति द्वितीयं वाक्यं पठतु, अनन्तरं तत् सम्बद्धं प्रथमं वाक्यं लिखतु. यत्र कुत्रापि क्रियाद्वयमस्ति अथवा कार्यद्वयमस्ति तत्र कृत्वा प्रत्ययं योजयामः. तदर्थमेव अस्मिन् वाक्ये पठित्वा इति पदं दत्तमस्ति. द्वितीयं वाक्यं प्रथमतया पठतु, तदनन्तरं प्रथमं वाक्यं लेखनीयं. किन्तु प्रथमं वाक्यं कीदृशं भवेत्? सम्बद्धं वाक्यं, रिलेटेड्. द ऐडिया शुड् बि क्लोज्, इट् शुड् बि सूटबल्. पठतु प्रथमं वाक्यं.
क्षम्यतां भगिनि, ऐ नीड् टु गो, सो ऐ एम् सारी.
अस्तु भगिनि, चिन्ता मास्तु, करोतु महोदय.
यथा यत्र भवान् गच्छति तत्र अहमपि आगच्छामि. यत्र भवान् गच्छति तत्र अहमपि आगच्छामि.
इत्युक्ते किम्?
Wherever you go, I shall come there with you.
इत्युक्ते अत्र अहमपि आगच्छामि. कुत्र? तत्र. कदा? कदा इत्युक्ते यत्र भवान् गच्छति तत्र अहमपि आगच्छामि. तथा एव प्रथमं करोतु.
भवान् अपि क्रीडतु.
प्रथमतया अत्र पश्यतु, यत्र तत्र योजनीयं. किन्तु अत्र तर्कः कः? लाजिक् कः इत्युक्ते अत्र भवान् अपि क्रीडतु. तत्र तत्र भवान् अपि क्रीडतु.
ओके, भवान् यत्र भवान् भवत्
यत्र सर्वे
क्रीडन्ति भवान् अपि क्रीडतु.
तत्र एव क्रीडतु.
भवान् अपि क्रीडतु. ओके, गाट् इट्.
उत्तमम्. इत्युक्ते केवलं किञ्चित् ऊहां कृत्वा अत्र कीदृशं वाक्यम् अस्ति, कीदृशं वाक्यं रचयामश्चेत् सम्यक् भवति इति किञ्चित् अनुमानं कृत्वा अथवा किञ्चित् ऊहां कृत्वा तत्र प्रथमं वाक्यं लेखनीयम्. अत्र द्वितीयं वाक्यं भवतीम् आगच्छतु. इत्युक्ते एतद् वाक्यं दृष्ट्वा वयं किम् अवगन्तुं शक्नुमः? माता अस्ति, माता पुत्रीं प्रति वदति भवतीम् आगच्छतु इति वदति. अस्मिन् सन्दर्भे वाक्यरचना कथं करणीयं वदतु.
यत्र
दुर्जनाः
दुर्जनाः सन्ति तत्र भवती मा गच्छतु.
उत्तमम्. अथवा यत्र वन्यमृगाः सन्ति अथवा सिंहाः सन्ति वदतु.
यत्र मृगाः सन्ति तत्र भवती मा गच्छतु.
तावदेव. तथा वदामः सम्यक् भवति. करोतु, भवान् करोतु.
यत्र how do you say traffic or something.
No, atra sammardah asti, vahana sammardah.
Okay, yatra vahana sammardah asti tatra bhavati ma gacchatu.
Tavadeva. Tatha vaktavyam. Api cha atra dhanyavadah mahodaya. Atra jan mahodaya bhavan kartum shaknoti va trutiyam.
Trutiyam. Okay, yatra this the other word is sarva 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 api gacchanti. Okay. Sarva api gacchanti, so that means all also should come, should go. Yatra aham gacchami तत्र सर्व सर्वे अपि गच्छन्तु गच्छन्ति.
एकवारं चिन्तनं कुर्मः महोदय. यत्र अहं भवान् किम् उक्तवान्? यत्र अहं गच्छामि तत्र सर्वे अपि गच्छन्ति. वाक्यं तु सम्यक् एव, किन्तु तस्य अर्थः कः? कः अर्थः? यत्र अहं गच्छामि तत्र सर्वे अपि गच्छन्ति.
It means wherever I am going, whatever I whatever I would change it. Yatra aham karomi. No, that won't work. We have this because here it is gacchanti. Gacchanti. Yatra aham gacchami tatra sarva sarvam, at least should be sarvam api gacchati gacchanti.
Atra ekvaram pashyatu. Atra dvitiyam vakyam asmakam krute dattam asti sarve iti padam. Sarve iti padam asti. Sarve api gacchanti iti vakyam dattam asti. Sarve iti padam sarva shabdah asti. Sarva shabdah pumlinge asti. Sarvah sarvau sarve इति बहुवचनरूपं. सर्वे इति पदं बहुवचनरूपम्. अपि च सर्वशब्दः सर्वनामशब्दः, इट्स् ए प्रोनौन्, किन्तु बहुवचनरूपम् अस्ति. सर्वे इति बहुवचनरूपम् अस्ति इति कृत्वा सर्वे अपि गच्छन्ति. तत्र सर्वे अपि गच्छन्ति. कुत्र? यत्र भवान् गच्छति तत्र सर्वे अपि गच्छन्ति इति अर्थः. भिन्न अन्यत् वाक्यं रचयामश्चेत् यत्र यत्र मधुरखाद्यानि सन्ति तत्र वदतु महोदय, पूरयतु वाक्यं. यत्र यत्र मधुरखाद्यानि
मधुरखाद्यानि सन्ति तत्र बहु
सर्वे अपि गच्छन्ति.
सर्वे अपि गच्छन्तु.
अत्र गच्छन्ति इति पदं लट्लकाररूपं, किन्तु गच्छन्तु इति वदामश्चेत् लोट्लकाररूपं.
गच्छन्तु
गच्छन्तु. तथा एव यत्र यत्र विनोदः अस्ति तत्र सर्वे अपि गच्छन्ति, द्रष्टुं गच्छन्ति.
अहं वदामि वा भगिनि?
वदतु वदतु मा.
यत्र दुष्टः वासं करोति तत्र वासं मा करोतु.
सुन्दरम्. यत्र दुष्टः वासं करोति तत्र भवती वासं मा करोतु. तथा एव यत्र कालुष्यमस्ति, कालुष्यम् इत्युक्ते कोऽपि वदति वा? अथवा
कालुष्यम् इस् क्वारल्.
कालुष्यम् अथवा मालिन्यम्
कालुष्यं मालिन्यम्
इत्युक्ते उत्तमं भवती पूरयतु भगिनि यत्र कालुष्यम् अस्ति अथवा यत्र मालिन्यम् अस्ति तत्र
तत्र वासं मा करोतु
तावदेव अथवा यत्र वातावरणं समीचीनं नास्ति करोतु
तत्र वासं मा करोतु
उत्तमं तथा एव यत्र पूतिः अस्ति पूतिः इत्युक्ते संस्कृतभाषायां फौल् स्मेल् पूतिगन्धः यत्र पूतिः अस्ति तत्र वासं मा करोतु तादृशरीत्या अन्यानि उदाहरणानि अपि किञ्चित् पश्येम अत्र अहं प्रथमं वाक्यं वदामि द्वितीयं वाक्यं भवन्तः किञ्चित् चिन्तयित्वा वदन्तु भगिनी भवती एव वदतु यत्र बालकाः सन्ति
यत्र बालकाः सन्ति तत्र अहमपि गच्छामि
उत्तमं यत्र बालकाः सन्ति अथवा यत्र बालकाः क्रीडन्ति तत्र अहमपि गच्छामि अपि च यत्र माता गच्छति तत्र
बालकाः
अहमपि गच्छामि अथवा साईकृष्णमहोदय भवान् किं वक्तुमिच्छति यत्र माता गच्छति
यत्र माता गच्छति अहमपि गच्छामि
तत्र अहमपि गच्छामि इति
तत्र अहम् अपि गच्छामि
उत्तमं तदेव अथवा तत् समीचीनमेव यत्र माता गच्छति तत्र पुत्री अपि गच्छति अथवा पुत्रः अपि गच्छति इति वक्तुं शक्नुमः यत्र यत्र मधुरखाद्यानि सन्ति तत्र कोऽपि वदतु
तत्र सन्तोषम् तत्र सन्तोषम् अपि अस्ति
सन्तोषः अपि अस्ति यत्र मधुरखाद्यानि सन्ति तत्र सन्तोषः अस्ति इत्युक्ते यत्र मधुरखाद्यानि सन्ति तत्र सर्वे अपि गच्छन्ति किमर्थं खादितुमिच्छन्ति सर्वे खादितुमिच्छन्ति तदर्थं तत्र गच्छन्ति अनन्तरम् अत्र शायिकृष्णमहोदय भवान् वदतु यत्र यत्र रामः अस्ति तत्र
तत्र लक्ष्मणं लक्ष्मण अपि अस्ति
तत्र लक्ष्मणः अपि अस्ति अथवा तत्र आञ्जनेयः अपि अस्ति तद् सीता अपि अस्ति तादृशरीत्या अपि च यत्र मत्स्याः सन्ति फिशस् यत्र मत्स्याः सन्ति तत्र किं भवति
तत्र जलम् अस्ति जलम् अपि अस्ति
तत् सम्यक् एव किम् इतोपि किं वक्तुं शक्नुमः यत्र मत्स्याः सन्ति तत्र धीवराः गच्छन्ति धीवराः इत्युक्ते फिशर्मेन्
जीवराः
धीवराः
धीवराः
यत्र मत्स्याः सन्ति तत्र धीवराः गच्छन्ति
धीवराः अपि
इत्युक्ते सन्ति इति वक्तुं शक्नुमः किन्तु अन्यानि क्रियापदानि अपि योजयित्वा वक्तुं शक्नुमः तत्र यत्र मत्स्याः सन्ति तत्र धीवराः गच्छन्ति यत्र कुत्रापि मत्स्याः न सन्ति तत्र धीवराः न गच्छन्ति. धीवराः अत्र शायिकृष्णमहोदय भवान् अस्ति वा अत्र? न श्रूयते महोदय. अस्तु, कादम्बरी भगिनी भवती वदतु एकवारं. यत्र यत्र महिलाः सन्ति तत्र भवती वदतु.
यत्र महिलाः सन्ति तत्र
किं भवति?
यत्र महिलाः सन्ति तत्र मम माता अपि गच्छति.
ओ, मम माता अपि गच्छति, उत्तमम्. यत्र महिलाः सन्ति तत्र मम माता अपि गच्छति, उत्तमम्. अत्र अपि च जान् महोदय भवान् वदतु, यत्र यत्र पण्डिताः सन्ति, पण्डिताः इत्युक्ते ज्ञानिनः, ज्ञानिनः सन्ति तत्र किं भवति?
यत्र यत्र पण्डिताः अस्ति
सन्ति पण्डिताः
तत्र तत्र I want to say knowledge of God, विद्या अपि सन्ति.
विद्या अपि अस्ति इत्युक् सम्यक् एव. इत्युक्ते अत्र अहं किं श्रोतुमिच्छामि, वाट् ऐ वाण्ट् टु लिसन् इत्युक्ते, अत्र यत्र यत्र पण्डिताः सन्ति तत्र संवादाः प्रचलन्ति, वण्डर्फुल् डिस्कशन्स् विल् हेपन्. संवादः
संवादः ओके. वादः इस् डिस्कशन्, सम् इस् गुड्, संवादः सन्ति. संवादः ओके. यत्र यत्र पण्डिताः अस्ति तत्र संवादः भवति.
भवति तावदेव. अत्र पण्डितः एकवचनं, पण्डिताः इति वदामश्चेत् यत्र पण्डिताः सन्ति तत्र संवादाः प्रचलन्ति, संवादाः भवन्ति. इत्युक्ते अत्र कर्तृपदं बहुवचने अस्ति चेत् तत्र क्रियापदम् अपि बहुवचने भवेत्. उत्तमं. यत्र 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 आसन्दाः सन्ति किं वदामः? यत्र आसन्दाः सन्ति, आसन्दः इत्युक्ते चेयर्.
चेयर् यत्र यत्र आसन्दाः अस्ति तत्र 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 कुशलं बि अस्ति, कुशलम् अपि अस्ति. कुशलम् और् आरोग्यं, नाट् आरोग्यं, रेस्ट्.
सामान्यपदमेव. अत्र पश्यन्तु, वयं पूर्वमेव पठितवन्तः उपविशति. उपविशति इत्युक्ते सिटिङ्ग्. यत्र आसन्दाः सन्ति
यत्र यत्र आसन्दाः सन्ति तत्र सर्वे उपविशति सर्वजनाः उपविशन्ति.
सुन्दरं. सर्वे जनाः उपविशन्ति. अत्र सर्वशब्दस्य बहुवचनं सर्वे. यत्र यत्र आसन्दाः सन्ति तत्र सर्वे जनाः उपविशन्ति. उत्तमम्. अधुना कादम्बरी भगिनी भवती वदतु, अत्र यत्र रामायणपठनं भवति
तत्र
हुँ. किं भवति
आनञ्जनेयः भवति
उत्तमं यत्र रामायणस्य पठनं भवति तत्र आञ्जनेयः भवति आञ्जनेयः तिष्ठति किमपि किमपि वाक्यं तत्र वाक्यं समी तत्र केवलं व्याकरण अंशः सम्यक् वा इति एव तत्र द्रष्टव्यम् ओन्लि वि शुड् थिङ्क् अबौट् द ग्रामर् आस्पेक्ट् नाट् द ऐडिया ऐडिया केन् बि एनिथिङ्ग् अत्र यत्र रामायणस्य पठनं भवति तत्र आञ्जनेयः तिष्ठति उत्तमम् अपि च यत्र यत्र वल्मीकः अस्ति वल्मीकः इति नूतनं पदं वल्मीकः इत्युक्ते आण्ट् हिल्
यत्र यत्र वाल्मीकः अस्ति तत्र शक्र मधुरम् अपि अस्ति शक्र अपि अस्ति
किन्तु अत्र पश्यतु महोदय यत्र यत्र याण्ट् हिल् इत्युक्ते वल्मीकः अस्ति तत्र प्रायः याण्ट् हिल् अस्ति चेत् प्रायः तत्र सर्पः तिष्ठति
सर्पः
निवासं करोति
सर्पः अपि व्यासं करोति ओके
यत्र यत्र वल्मीकः अस्ति तत्र सर्पः निवासं करोति प्रायः सर्वदा नास्ति प्राबब्लि
प्रायः मीन्स् प्राबब्लि ऐ हेव् अ क्वश्चन् sky we have been using this word siyat many times now siyat what is the dhatu for siyat
as dhatu
as it is as dhatu okay
as dhatu
so siyat will be vidhiling of as dhatu
vidhiling
okay I have another request, a compression. Is it possible to send a chart for the Vidhiling 9 forms?
Prashayami Mahodaya. Prashayishyami.
Both PPP and APP for Vidhiling.
Prashayishyami.
And maybe you can use Siya as Astatu as an example. उदाहरणम् अस् धातु
अपि च
उदाहरणम् अस् धातु उदाहरणं प्रयोग एकं कोष्ठः कोष्ठः प्रवेशतु
प्रेषयतु
प्रेषयतु
उत्तमम् इत्युक्ते अत्र अस्धातोः रूपाणि स्वीकृत्य तत्र नवरूपाणि विधिलिङ्ग् रूपाणि वयं जानीमः दशलकाराः सन्ति तत्र तेषु अन्यतमः विधिलिङ्गलकारः विधिलिङ्गलकाररूपाणि अत्र यदि भवान् इच्छति चेत् अत्र एकः वेब्सैट् अस्ति अष्टाध्यायी डाट् काम् इति एकः वेब्सैट् अस्ति डाट् काम् तस्मिन् जालपुटे यदि वयं धातुं लिखामश्चेत् तत्र सर्वाणि रूपाणि वयं द्रष्टुं शक्नुमः तत्र संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति केवलं तस्मिन् जालपुटे इन् दट् वेब्सैट्
वर्तमानकाल
सर्वाणि रूपाणि द्रष्टुं शक्नोति महोदय दशलकारेषु दशलकाराणां रूपाणि आल् द 10 लकारास् जस्ट् इफ् यु टैप् इन् द धातोः मूलरूपं टैप् कुर्मः चेत् तत्र दशलकाराणां रूपाणि वयं सुलभतया अवगन्तुं शक्नुमः. किन्तु तत्र तत्र एका समस्या अस्ति. कानिचन रूप
कानिचन So for vidiling, what would be the gana for that? Vidiling.
Asthatuhu. Asthi iti... Aham preshayami. Atra asthi iti type kurmaha chet, tatra rupani drashtam shaknamaha.
Okay. Now, I'm confused now. Is there a difference between lakara and gana? Gana, that... Where is the difference, right?
अस्तु महोदय, अस्ति भेदः अस्ति. गणः इत्युक्ते किं गणः इत्युक्ते संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति. अप्राक्सिमेट्लि मोर् देन् 2000 धातुस्.
दे आर् क्लासिफैड् इन् 10 गणास् बट् लकार इस् आल्सो 10 दट् इस् क्लासिफिकेशन् आफ् द वर्ब्स् इस् दट् राइट् लैक् वर्तमानकाल भूतकाल एण्ड् भविष्यकाल एण्ड् आल् दोस् लोट्लकार इस् वन् आफ् दम् विदिलिङ्ग् इस् वन् आफ् दम् ओके
उत्तमम् इत्युक्ते तत्र कति लकारः लट् लकारः लोट् लकारः लङ् लकारः लृट् लकारः लृङ् लकारः लिङ् लकारः लुट् लकारः लेट् लकारः तादृशरीत्या दशलकाराः सन्ति. इत्युक्ते तत्र यथा भवान् उक्तवान् दशलकाराः सन्ति, दशधातुगणाः सन्ति. किन्तु तत्र वयं धातोः रूपं तत्र लिखामश्चेत् तस्मिन् जालपुटे दशलकारेषु तस्य धातोः रूपाणि कानि इति सर्वाणि वयं तस्मिन् जालपुटे द्रष्टुं शक्नुमः. किन्तु अहं प्रेषयिष्यामि. वदतु अत्र कादम्बरी भगिनी, भवती वदति वा एकं वाक्यं यत्र तत्र योजयित्वा.
यत्र यत्र
यत्र अहं वदामि यत्र विज्ञानमस्ति तत्र
यत्र विज्ञानमस्ति तत्र
किं वदामः यत्र किं वदामः साधारणतया यत्र यत्र विज्ञानमस्ति तत्र मूढता नास्ति. वेर् देर् इस् सैन्स् देर् वोण्ट् बि एनी सूपर्स्टिशन्स्. यत्र यत्र विज्ञानमस्ति तत्र मूढता न दृश्यते. तथा एव यत्र चैतन्यमस्ति, कोऽपि वदति वा चैतन्यमस्ति, प्रोग्रेसिव् थिङ्किङ्ग् अस्ति.
चैतन्यम् इत्युक्ते किं?
प्रोग्रेसिव् थिङ्किङ्ग् चैतन्यं. यत्र चैतन्यमस्ति तत्र प्रगतिः अस्ति. भगिनि भवती वदतु यत्र 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 नृत्यप्रदर्शिनी अस्ति तत्र किं वदतु.
यत्र नृत्यप्रदर्शिनी अस्ति तत्र आनन्दः अस्ति.
तत्र आनन्दः अस्ति. उत्तमं तावदेव. अपि च यत्र यत्र गुडमिश्रितमधुरखाद्यानि सन्ति. गुडमिश्रितमधुरखाद्यानि इत्युक्ते स्वीट् डिसर्ट्स्. गुडमिश्रितमधुरखाद्यानि सन्ति तत्र कोऽपि वदतु कोऽपि.
अहं न जानामि
तत्र बहु बहु तत्र बहु मधुराणि मधुराणि वाक्यानि सन्ति.
तत्र जलमस्ति.
अत्र पश्यतु भगिनि, पश्यतु एकवारं गुडमिश्रितं
सः तत्र शान्तिम् अस्ति नो
न
तत्र तत्र सन्तोषम् अस्ति तत्र विद्या विद्याम् अस्ति
अत्र पश्यन्तु अहं किम् उक्तवती प्रथमं वाक्यं यत्र यत्र गुडमिश्रितमधुरखाद्यानि सन्ति इत्युक्ते स्वीट् डिसर्ट्स् मेड् आफ् जागरि
सन्ति
तत्र बालाः गच्छन्ति अथवा बालाः खादितुं गच्छन्ति
बालाः ऐ वाण्ट् टु से स्थूलबालाः सन्ति
तत्र स्थूलबालाः सन्ति उत्तमम् तावदेव अत्र शायिकृष्णमहोदय भवान् वदतु एकं वाक्यं यत्र तत्र योजयित्वा
यत्र 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 शिक्षिका अस्ति तत्र तत्र अपि छात्राः सन्ति
यत्र शिक्षिका अस्ति तत्र छात्राः
सन्ति
यत्र शिक्षिका अस्ति तत्र गच्छन्ति छात्राः उत्तमम् अपि च अत्र भावना भगिनी भवती वक्तुं शक्नोति वा एकं वाक्यं यत्र तत्र योजयित्वा अत्र अञ्जली भगिनी अस्ति भगिनी भवती वक्तुं शक्नोति वा एकं वाक्यं अञ्जली वदतु
यत्र यत्र संस्कृतम् अस्ति तत्र संस्कृति भवति
उत्तमं यत्र यत्र संस्कृतम् अस्ति तत्र उत्तमसंस्कृतिः भवति अथवा उत्तमसंस्कारः वदतु
यत्र 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 भागवतपठनं भवति तत्र कृष्णः अस्ति
उत्तमं यत्र भागवतपठनं भवति तत्र श्रीकृष्णः तिष्ठति भवति उत्तमं तावदेव तथा एव यत्र यत्र स्वच्छता अस्ति अथवा शुद्धता अस्ति तत्र किं भवति
आरोग्यं भवति
आरोग्यं स्वस्थता वर्तते आरोग्यं वर्तते यत्र यत्र स्वच्छता अस्ति अथवा शुद्धता अस्ति तत्र अनामयस्थितिः अनामयम् इत्युक्ते रोगरहितं रोगरहितस्थितिः अनामयम् इति वदामः अनामयम् इत्युक्ते आमयम् इत्युक्ते रोगः अनामयम् इत्युक्ते रोगरहितस्थितिः इत्युक्ते स्वस्थता आरोग्यं यथा भगिनी उक्तवती यत्र स्वच्छता अस्ति तत्र आरोग्यं वर्तते उत्तमम् अपि च एकम् उत्तमं वाक्यमस्ति संस्कृतभाषायां न्यायशास्त्रं संस्कृतभाषायां न्यायशास्त्रमस्ति न्यायशास्त्रं एकं दर्शनशास्त्रम् इति वदामः संस्कृतभाषायां षड् दर्शनानि सन्ति तेषु अन्यतमदर्शनशास्त्रं न्यायशास्त्रं न्यायशास्त्रे एकं वाक्यम् उक्तमस्ति यत्र धूमः अस्ति तत्र अग्निः अथवा तत्र वह्निः स्यात् वेर् देर् इस् अ स्मोक् देर् विल् बि फायर् यत्र धूमः अस्ति तत्र वह्निः संस्कृतभाषायाम् अग्निः इति पदस्य पर्यायवाचकपदमस्ति सिनोनिम् वह्निः इति पदमस्ति इत्युक्ते यत्र धूमः अस्ति तत्र वह्निः स्यात्
one vihi how to say that slowly say spell i want to spell that one vihi fire. Vanvihi, va envihi.
Tatra hakarah.
Okay.
Ukarah. Nakarah.
Okay.
Vahni, hakarah, nakarah. Api cha tatra ikarah api asti. Ante visargah asti.
Okay.
Visargah ichukte.
Yeah, got it. Vinvahi. Vinvahi.
Vanvihi.
One vahi. It's fire. And when would we use Agni?
Agnihi iti padam, paryayavachaka padam. It's a synonym for vanvihi. Both are synonyms. Agnihi, vanvihi.
Vanvihi, okay.
Yatra yatra dhumahasti, tatra tatra.
Vanvihi syat.
इत्युक्ते एतद् वाक्यं न्यायशास्त्रे उक्तमस्ति. तत्र बहवः बहूनि प्रमाणानि सन्ति. प्रत्यक्षप्रमाणम्, अनुमानप्रमाणं, शाब्दप्रमाणं, तादृशप्रमाणानि सन्ति. तेषु अत्र एतद् वाक्यम् उक्तमस्ति. अत्र अनुमानप्रमाणेन साधयितुमिच्छामः. तत्र यत्र धूमः अस्ति तत्र वह्निः स्यात् इति नैयायिकाः वदन्ति. नैयायिकाः इत्युक्ते यः न्यायशास्त्रं जानाति सः एव नैयायिकः.
It's a kridanta. What's the name of the kridanta? Is tatra kridanta? Nayayikaha?
Kridanta padam. Nayayikaha. Ichukte tatra tadhidanta anrupam. Yaha vyakaranam janati saha vayakaranaha.
Like kumbhakaraha. No, that's different.
यः कुम्भं करोति सः कुम्भकारः.
यः कुम्भं करोति सः कुम्भकारः. ओके.
तथा एव यः व्याकरणं जानाति सः वैयाकरणः. तथा एव यः न्यायशास्त्रं जानाति सः नैयायिकः.
नैयायिकः. ओके.
तथा इत्युक्ते पदानि तादृशरीत्या निष्पन्नानि भवन्ति. उत्तमम्. अद्य वयं अपेक्षया इति पदस्य किञ्चित् अधीतवन्तः. अपि च यत्र तत्र इति पदद्वयं योजयित्वा वाक्यानि कथं लेखनीयानि कस्मिन् विषये अपि किञ्चित् चिन्तनम् अभवत्. सर्वे गृहपाठरूपेण कानिचन वाक्यानि लिखन्तु. अधुना अत्र स्थगयाम. पुनः एकवारम् अग्रिमे सप्ताहे मेलिष्यामः. सर्वेषां धन्यवादः. नमस्कारः.
धन्यवादः.
नमस्कारः. धन्यवादः.
नमस्कारः. धन्यवादः.